इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुरुषोत्तम शर्मा। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य बिहारस्य राजगीरस्थले नालन्दा विश्वविद्यालयस्य नवनिर्मित परिसरस्य उद्घाटनम् अकरोत्। उक्तं च यत् भारतं निजशिक्षा ज्ञानप्रणालीं च सुदृढां विधाय महाशक्तेः स्थानं प्राप्तुं शक्नोति। प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् केन्द्रप्रशासनं रक्ताल्पता रोगसम्बद्धानां समाह्वानानां निवारणाय प्रौद्योगिक्याः प्रबलतया अधिकाधिकं मात्रया च प्रयोगं विदधाति। सिक्किमप्रदेशे जलप्लावितक्षेत्रेषु साहाय्योद्धारकार्याणि रक्षाभियानं च द्रुतगत्या प्रवर्तते। समेधमानवृष्ट्या असमे अरुणाचले च जनजीवनं दुष्प्रभावितं वर्तते। अपि च आईसीसी इत्यस्यां पुरुषाणां 20-प्रति-20 विश्वचषकक्रिकेट प्रतिस्पर्धायाम् अद्य दक्षिणाफ्रीकादलस्य सामुख्यम् अमेरिकादलेन समं भविष्यति। अथ वार्ताः विशदीकृत्य। प्रधानमन्त्री नरेन्द्रमोदी अद्य बिहारस्य राजगीरस्थले नालन्दा विश्वविद्यालयस्य नवनिर्मित परिसरस्य उद्घाटनम् अकरोत्। अत्रावसरे प्रधानमन्त्री अवोचत् यत् ज्ञानं 47-उत्तर-2000 वर्षं यावत् भारतं विकसितराष्ट्रं कर्तुं महत्वपूर्णां भूमिकां निभालयिष्यति। नालन्दा विश्वविद्यालयस्य उद्घाटनानन्तरं सुषमा स्वराज सभागारे छात्रान् संकाय सदस्यान् च सम्बोधयन् प्रधानमन्त्री अवोचत् यत् भारतं निजशिक्षां ज्ञानप्रणालीं च सुदृढां विधाय महाशक्तेः स्थानं प्राप्तुं शक्नोति। अमुना उक्तं यत् नालन्दा विश्वविद्यालयः जगति अस्माकं अस्मितायाः परम्पराणां च बृहत्तमम् उदाहरणं वर्तते। नालन्दा विश्वविद्यालयस्य नूतनस्वरूपम् उदीयमानभारतस्य क्षमतायाः शक्तेश्च प्रतीकं विद्यते। श्रीमोदिना उक्तं यत् तदीयं प्रशासनं भारतस्य शिक्षाक्षेत्रे बृहत्तम ज्ञानकेन्द्ररूपेण स्थापयितुं कार्यम् आचरति। अत्रावसरे विदेशमन्त्री एस जयशंकरः अवदत् यत् शिक्षा प्रशिक्षणं क्षमतानिर्माणं च अन्ताराष्ट्रियदृष्टिकोणं समेधितुं प्रभावपूर्णोपायाः विद्यन्ते। अस्मिन् अवसरे बिहारस्य मुख्यमन्त्री नीतीशकुमारः, उपराज्यपालः राजेन्द्र आर्लीकरः, उपमुख्यमन्त्रिणौ सम्राट चौधरी विजयसिन्हा, अन्ये प्रतिनिधयः, 17 राष्ट्राणां राजदूताः च उपस्थिताः आसन्। प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् केन्द्रप्रशासनं रक्ताल्पता रोगसम्बद्धानां समाह्वानानां निवारणाय प्रौद्योगिक्याः प्रबलतया अधिकाधिकं मात्रया च प्रयोगं विदधाति। अद्य विश्व रक्ताल्पता रोग दिवसावसरे उतवा सिकल सेल इत्याख्ये अवसरे श्रीमोदिना रोगम् अमुं नियन्त्रितुं प्रशासनस्य प्रतिबद्धता पुनरावर्तिता। एकस्मिन् सामाजिक सञ्चारपटले असौ न्यगदत् यत् प्रशासनेन विगतवर्षे राष्ट्रिय सिकल सेल रक्ताल्पताभियानं समारब्धम्। अपि च तत्सम्बद्धे जागरूकतां प्रबलीकर्तुं समुचितोपचारं रोगस्य त्वरिताभिज्ञानं च इत्यादिषु विषयेषु कार्यमपि विधीयते। अत्रावसरे स्वास्थ्यमन्त्रिणा जगत्प्रकाशनड्डा इत्यनेन प्रोदीरितं यत् प्रशासनं शीघ्रमेव निदानं संवर्धयितुम् उपचारप्रापणाय रोगिणाञ्च उपचारार्थं ध्यानं प्रददाति। सिक्किमप्रदेशे जलप्लावितक्षेत्रेषु साहाय्योद्धारकार्याणि रक्षाभियानं च द्रुतगत्या प्रवर्तते। मंगनजनपदस्य लाचुंग चुंगथांग प्रभावितक्षेत्रयोः 300-उत्तर-1000 पर्यटकाः सुरक्षितस्थानेषु सम्प्राप्ताः सन्ति। मंगनजनपदाधिकारी हेमकुमारक्षेत्री आकाशवाणीं संसूचितवान् यत् अवरुद्धपर्यटकानां निष्कासनकार्यम् अद्य सम्पूरयिष्यते। तत्रैव असमराज्ये सततं जायमानया वृष्ट्या अनेकेषु जनपदेषु सामान्यं जनजीवनं प्रभावितं जातम्। अनया अत्यधिकवृष्ट्या पञ्चदश जनपदानां सार्धैकलक्षजनाः संकटग्रस्ताः विद्यन्ते। ह्यः रात्रौ करीमगंज जनपदे भूस्खलनेन पञ्च जनाः दिवंगताः। अस्य जनपदस्य सर्वे विद्यालयाः अद्य श्वः च पिहिताः भविष्यन्ति। गौहाट्यामपि जलभरणस्य सूचनास्ति। जलप्लावितेषु विविधेषु जनपदेषु पथसञ्चारसेवापि बाधिता भवति। एतदतिरिच्य अरुणाचलप्रदेशे भारतर्तु विज्ञान विभागेन पूर्वीय कामेंग पापुम्पारे दिबांग उपत्यका जनपदेषु रक्तवार्णिकी जनसंचेतना प्रसारिता। नवदश जनपदेभ्यः नारंगवार्णिकी शेषेभ्यश्च पीतवार्णिकी संचेतना प्रदत्ता। अवधेयं यत् कारसिंगसा क्षेत्रे सहसागतेन जलाप्लावनेन राष्ट्रिय राजमार्गस्य 15.4% इत्यस्य एको भागः निमग्नो जातः, येन हि यातायात सेवा पूर्णतया स्थगिता अभवत्। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। वित्तमन्त्रिणा निर्मला सीतारामन् इत्यनया अद्य नवदिल्ल्यां सामान्यं 24-2025-2000 अर्थसंकल्पपत्रं निधाय प्रमुखैः अर्थशास्त्रज्ञैः परामर्शस्य प्रथमचरणस्य अध्यक्षता कृता। एतस्मिन् आध्यक्षयुते सत्रे केन्द्रीय वित्तराज्यमन्त्री पंकजा चौधरी, वित्तसचिवः, वित्तमन्त्रालयस्य विभागानां सचिवाः, राजस्वाधिकारिणः, मुख्यार्थिकपरामर्शदाश्च सम्मिलिताः अभवन्। केन्द्रीय खाद्य प्रसंस्करणोद्योगमन्त्री चिराग पासवानः अद्य नवदिल्ल्यां विश्व खाद्य भारतं 24-2000 सम्बोधयन् प्रोक्तवान् यत् खाद्य प्रसंस्करण क्षेत्रे सीमरहिताः सम्भावनाः वर्तन्ते, अपि च आभिः सम्भावनाभिः कृषकाणाम् आयसंवर्धनं विकसित भारतस्य स्वप्नपूर्णं च भविष्यति। श्रीपासवानः अवोचत् यत् खाद्यपदार्थानां निर्मलता गुणवत्ता परीक्षणं वैश्विकमानकानां पूर्तिः च प्रशासनस्य प्राथमिकताः भविष्यन्ति। राजधान्यां नवदिल्ल्यां जलसंकटं अनवरतं प्रवर्तते। टैंकर इति जलसंचयवाहनेभ्यः जलवितरणकेन्द्रेषु जनानां सुदीर्घपंक्तयो विद्यन्ते। अनेन कारणेन दिल्ल्यां स्थाने स्थाने विरोधप्रदर्शनं राजनीतिकोहापोहश्च दृश्यन्ते। नवदिल्ली नगरपालिका परिषत्क्षेत्रम् अपि जलनैयून्यप्रभावितं वर्तते। परिषदः उपाध्यक्षः सतीश उपाध्यायः वार्ताहरैः सह संवादे दिल्ली प्रशासनं विरुध्य टैंकर टेंडर माफिया इत्येतयोः संरक्षणस्य भ्रष्टाचारस्य च आरोपान् आरोपयत्। अमुना जनाः आवासीय प्रखण्डाः च जलस्य विवेकपूर्णोपयोगाय निवेदिताः। अत्रान्तरे दिल्ली सर्वकारेण आरोपितं यत् हरियाणायाः भाजपा प्रशासनं राजनीतिक विसंगतिः वशात् दिल्ल्याः जलापूर्तिम् अवरोधयति। दिल्ल्याः जलमन्त्री आतिशी वार्ताहरान् सम्बोधयन्ती उक्तवती यत् विषयेऽस्मिन् प्रधानमन्त्रिणे पत्रं विलिख्य शीघ्रं हस्तक्षेपस्य अर्ध्यर्थना कृता, येन अस्याः समस्यायाः समाधानं भवेत्। ऋतुविज्ञानविभागेन संसूचितं यत् पश्चिमीय विक्षोभकारणेन उत्तरभारतं श्वः आरभ्य एकमासस्य अस्य मासस्य एकविंशतिदिनांकं यावत् भीषणोष्ण प्रकोपात् शैथिल्यं प्राप्स्यति। आकाशवाणीं संसूचयन् ऋतुवैज्ञानिकः आर.के. जेदामणिः अकथयत् यत् राष्ट्रिय राजधान्याम् अद्य समेकिते तापमाने 1-2 डिग्री सेल्सियस मितं यावत् अपचितेः अनुमानम् अस्ति। आईसीसी इत्यस्यां पुरुषाणां 20-20 विश्वचषक क्रिकेट स्पर्धायाम् अद्य सर्वोच्च अष्टचरणं सज्जं वर्तते। भारतीय समयानुसारम् 8 वादने दक्षिणाफ्रीकादलम् अमेरिकादलेन सह क्रीडिष्यति। इति वार्ताः।